नमस्सर्वेभ्यः अद्य कोविदवर्गे तृतीयः पाठः मार्च् मासस्य ऊनत्रिंशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गतसप्ताहे वयं समासानां विषये किञ्चित् प्राथमिकज्ञानं प्राप्तवन्तः समासः नामकः अनेकस्य पदस्य एकपदीभवनं समासः समसनं समासः इत्युच्यते समसनम् इत्युक्ते अनेकस्य पदस्य एकपदीभवनं रामः लक्ष्मणः च वनं गच्छतः इति एकं वाक्यमस्ति वाक्ये पृथक् पृथक् पदानि भवन्ति रामः लक्ष्मणः च वनं गच्छतः इति पञ्चपदानि सन्ति तत्र रामः लक्ष्मणः च इति पदानां स्थाने पदानां मेलनेन रामलक्ष्मणौ इति एकं पदं भवति अनेकस्य पदस्य पूर्वं बहूनि पदानि आसन् तदनन्तरं रामलक्ष्मणौ इति एकमेव पदं भवति अस्य समासः इति नाम रामलक्ष्मणौ वनं गच्छतः इति वाक्यम् तत्र समासे पारिभाषिकाणि पदानि कानिचन भवन्ति समस्तपदं पूर्वपदम् उत्तरपदं विग्रहवाक्यम् इति पदानां मेलनेन यत् एकं पदं जायते तत् समस्तपदम् इत्युच्यते सीतापतिः इति समस्तपदम् समासे प्रथम अवयवः पूर्वपदम् इति उच्यते यथा सीतापतिः इत्यत्र सीता इति पूर्वपदम् समासस्य चरमावयवः अन्तिमः अवयवः उत्तरपदम् इति कथ्यते बहूनि पदानि सन्ति चेत् रामलक्ष्मणभरतशत्रुघ्नाः इत्यस्ति चेत् प्रथमं राम इति पूर्वपदम् अन्तिमं शत्रुघ्न इति उत्तरपदम् समस्तपदस्य अर्थं बोधयितुं वाक्यस्य प्रयोगः क्रियते तदेव विग्रहवाक्यम् इति कथ्यते उपकृष्णम् इत्युक्ते किम् कृष्णस्य समीपम् इति अर्थः अतः कृष्णस्य समीपम् इति विग्रहवाक्यम् तस्य एव विग्रहः इत्यपि नाम भवति ततः वयम् अग्रे सन्धिः समासः एतयोः कः भेदः इत्यपि दृष्टवन्तः सन्धिः समासः देवस्यालयं गच्छामि अहं देवस्यालयं गच्छामि इत्यत्र सवर्णदीर्घसन्धिः अस्ति देवस्य आलयं देवालयम् एवमेव अहं देवालयं गच्छामि इत्युक्ते तत्रापि देव आलयं देवालयं तत्रापि सवर्णदीर्घसन्धिः अस्ति तर्हि कः भेदः इति चेत् यत्र पदद्वयस्य मध्ये केवलसन्धिः भवति तत्र वयं पृथक् पृथक् अपि लेखितुं शक्नुमः अहं देवस्य आलयं गच्छामि अथवा क्रमं परिवर्त्य अपि लेखितुं शक्नुमः अहम् आलयं देवस्य गच्छामि अथवा मध्ये अन्यानि पदानि योजयित्वा अपि वक्तुं शक्नुमः देवस्य अहं गच्छामि आलयं सर्वत्र अर्थः समानः सर्वं वाक्यमपि साधु एव किन्तु यदा समासः क्रियते अहं देवालयं गच्छामि अत्र समासः अस्ति समासानन्तरं सन्धिः अद्य वयं तदनन्तरम् अनन्तरकाले पश्यामः का प्रक्रिया समासे इति इदानीं किं समासः कृतः चेत् पृथक् पृथक् लेखितुं न शक्यते अहं देव आलयं गच्छामि इति न साधुवाक्यं दोषः पृथक् पृथक् लेखितुं न शक्यते क्रमपरिवर्तनम् आलयदेवं गच्छामि इति न युज्यते, सः अपि दोषः. देव अहं गच्छामि आलयं मध्ये अन्यत् पदमपि योजयितुं न शक्यते. एवं केवलसन्धेः समासस्य च, समासे अपि सन्धिः अस्ति किन्तु केवलः सन्धिः चेत् विसन्धिप्रयोगः कर्तुं शक्यते. विसन्धि इत्युक्ते सन्धिं विना देवस्य आलयम् इति वक्तुं शक्यते. समासः कृतः चेत् सन्धिं विना न वक्तव्यं, देवालयम् इत्येव, देव आलयम् इति न वक्तव्यम्. द्वितीयः अंशः क्रमपरिवर्तनं, केवलसन्धिः चेत् क्रमपरिवर्तनं कर्तुं शक्यते आलयं देवस्य इति, किन्तु समासे क्रमपरिवर्तनं न कर्तव्यम्. तृतीयः मध्ये अन्यपदनिवेशः, यदि पृथक् पृथक् पदमस्ति तर्हि मध्ये अन्यानि पदानि भवितुम् अर्हन्ति, समासे तु मध्ये अन्यत् किमपि न भवेत् इति. एते भेदाः केवलसन्धेः समासस्य च. एतावत् गतवर्गे दृष्टं. तत्र गृहकार्यरूपेण केचन अभ्यासाः आसन्. अत्र 20 पदानि दीयन्ते, तेषु कानि समस्तपदानि कानि असमस्तपदानि इति वक्तव्यम्. समस्तपदमित्युक्ते किम्? तत्र भागद्वयं, पदद्वयं तदन्तर्गततया यत्र दृश्यते तत् समस्तपदम्. एकमेव पदमस्ति चेत् असमस्तपदम्. ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु, अहम् अन्म्यूट् कृत्वा अवकाशं ददामि. वेङ्कटरामन् अय्यर् महोदय, अर्थलाभः इति कीदृशम्?
अर्थलाभः समस्तपदम्.
समस्तपदम्, यतोहि अर्थलाभः पदद्वयम् अस्ति, समस्तपदम्. उद्योगः
असमस्तपदम्.
असमस्तपदम्. वरान्वेषणम्
समस्तपदम्.
समस्तपदम्. वर अन्वेषणम्, वरान्वेषणम्. पितृभक्तिः
पितृभक्तिः समस्तपदम्.
समस्तपदम्. पितृभक्तिः पितृभक्तिः. धन्यवादः. सुधा भगिनी.
नमस्ते भगिनी. नदी प्रवाहः समस्तपदं, नद्याः प्रवाहः इति भवति.
नदी प्रवाहः, नद्याः प्रवाहः युक्तं समस्तपदं. देशसेवा,
देशसेवा समस्तपदं, देशाय सेवा.
देशस्य सेवा, देशसेवा, देशसेवा. शुद्धता,
शुद्धता असमस्तपदम्.
असमस्तपदं, तत्र एकमेव पदमस्ति, भागद्वयं नास्ति, अतः असमस्तपदम्. वसिष्ठाश्रमः,
वसिष्ठाश्रमः समस्तपदमस्ति, वसिष्ठस्य आश्रम.
वसिष्ठ आश्रमः पदद्वयमस्ति, अतः समस्तपदम्. सम्यक्. शिवराम महोदय. न श्रूयते. शिवराम कुलकर्णि महोदय. हा वदतु. गंगा यमुने, गंगा यमुने नवमं पदम्. ब्रेक् भवति, न श्रुतं. गंगा यमुने समस्तपदं, सत्यं. गंगा यमुने समस्तपदं. वृक्षः असमस्तपदं. विद्या असमस्तपदम्, एकमेव अस्ति. गमनम्, गमनम् इत्यपि असमस्तपदम्. सम्यक्. रोहन् महोदय.
नमो नमः. पद्माकरः समस्तपदम्
पद्म आकरः पद्माकरः समस्तपदम्
सूचना असमस्तपदानि
सूचना इति असमस्तम्
शय्या असमस्तम्
शय्या असमस्तम् कृष्णफलकम्
समस्तपदम्
समस्तपदम् कृष्णफलकम्
कृष्णफलकम्
सम्यक् कृष्णं फलकं कृष्णफलकम् अग्रे रामनाथन् महोदय
हरि ओम्
समस्तपदं शिला प्रतिमा शिलाप्रतिमा पदम्
असमस्तपदम्
असमस्तपदं
जनः असमस्तपदं धर्मः
सम्यक् पदं जनः धर्मः इति एतानि असमस्तपदानि एतानि समस्तपदानि अग्रिमः अभ्यासः आसीत् केचन श्लोकाः आसन् तेषु कानि कानि समस्तपदानि इति वक्तव्यम् जयतु जयतु देवो देवकी नन्दनोऽयम् जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वी भारनाशो मुकुन्दः मुकुन्दमालायाः अयं श्लोकः
नमस्ते मान्ये समस्तपदं देवकी नन्दनः
देवकी नन्दनः सम्यक्
वृष्णि वंशम् और् वंशः ऐ डोण्ट् नो
वंशप्रदीपः
वृष्णिवंशप्रदीपः
वृष्णिवंशप्रदीपः त्रीणि पदानि सन्ति
कोमलाङ्गः
कोमलाङ्गः
पृथ्वीभारनाशः
पृथ्वीभारनाशः अनन्तरम् इतोपि एकमस्ति
मेघश्यामलः
मेघश्यामलः कोमलाङ्गः पृथ्वीभारनाशः एवं पञ्चसमस्तपदानि सन्ति देवक्याः नन्दनः देवकीनन्दनः देवक्याः नन्दनः पुत्रः अथवा यः देवक्याः हर्षं ददाति सः इत्यर्थः वृष्णिवंशप्रदीपः वृष्णीनां वंशः वृष्णिवंशः वृष्णिवंशस्य प्रदीपः दीपः इव वृष्णिवंशस्य वृष्णिवंशं सः उज्ज्वलयति इत्यर्थः मेघश्यामलः मेघः इव श्यामलः मेघश्यामलः श्यामलः कृष्णवर्णः इत्यर्थः कथं मेघः इव यथा मेघः तथा एषः अपि श्यामलः कोमलाङ्गः कोमल अङ्ग कोमलानि अङ्गानि यस्य सः तस्य अङ्गानि बहु मृदूनि इत्यर्थः पृथ्वीभारनाशः पृथ्वी भूमिः पृथ्व्याः भारः पृथ्वीभारः पृथ्वीभारस्य नाशः धनुजानां राक्षसानां मर्दनेन भूमेः भारं सः न्यूनीकृतवान् इत्यर्थः एवं पञ्चसमस्तपदानि सन्ति मुकुन्दः इति समस्तपदं न अग्रिमः श्लोकः प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजनान् अपरित्यजन्ते राजेश्वरी भगिनि यू हैव टू अनम्यूट विघ्नभयेन विघ्नात् भयं विघ्नभयम् अग्रे विघ्नविहताः
पुनरपि
पुनः अपि पृथक् पृथगेव वदम् तत्र समासः नास्ति
नास्ति प्रतिहन्यमानाः
तत्रापि तत्र प्रति इति उपसर्गः हन् धातुः तस्य प्रत्ययः तत्रापि समासः न
उत्तमजनाः
उत्तमजनाः इत्यत्र समासः उत्तमजनाः उत्तमजनाः एवं त्रीणि समस्तपदानि सन्ति अन्यत्र उपसर्गः परि इति उपसर्गः त्यजन्ति इति तिङन्तम् एवं प्रति इति उपसर्गः हन् इति धातुः प्र इति उपसर्गः आ इति उपसर्गः रभ् इति धातुः त्रीणि समस्तपदानि सन्ति विघ्नभयेन विघ्नात् भयं विघ्नभयं तेन विघ्नविहताः विघ्नैः विहताः विघ्नविहताः उत्तमाः जनाः उत्तमजनाः त्रीणि समस्तपदानि सन्ति नीतिशतकस्य इदं सुभाषितं भवति अग्रिमः श्लोकः अस्य श्लोकस्य अर्थः केचन जनाः किं कुर्वन्ति विघ्नाः भवेयुः इति कारणेन कार्यं न आरभन्ते एव इदानीं वर्गः अस्ति दशवर्गाः भवन्ति मध्ये ओ कदाचित् गन्तुं न शक्येत इति दृष्ट्या न गच्छन्त्येव प्रारभ्यते न खलु विघ्नभयेन विघ्नः भवेत् इति भीत्या कार्यस्य आरम्भमेव न कुर्वन्ति केचन जनाः केचन किं कुर्वन्ति प्रारभ्य विघ्नविहताः विघ्नाः मध्ये किञ्चित् कष्टं भवति चेत् विरमन्ति तत्रैव स्थगयन्ति अग्रे प्रयत्नं न कुर्वन्ति किन्तु उत्तमजनाः किं कुर्वन्ति विघ्नैः पुनः पुनः प्रतिहन्यमानाः अपि पुनः पुनः मध्ये बहुवारं विघ्नाः भवन्ति चेदपि प्रारब्धं न परित्यजन्ति यत् कार्यं तैः आरब्धं तत् मध्ये न त्यजन्ति यावत् तस्य साफल्यं प्राप्यते तावत् प्रयत्नं कुर्वन्ति इत्यर्थः अग्रिमः श्लोकः अयमपि प्रसिद्धः श्लोकः शिवपञ्चाक्षरस्तोत्रस्य यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय राजीव महोदय न श्रूयते हरि ओम् शेषप्रिया भगिनी यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय इत्यत्र समस्तपदं नास्ति एकमेव पदं सनातन इति दिगम्बराय इत्यपि समस्तं पदं यक्षस्वरूपाय यः यक्षस्य स्वरूपं धृतवान् सः कुत्रचित् पौराणिककथायां भवति जटाधराय जटायाः धरः जटाधरः तस्मै सर्वत्र चतुर्थी विभक्तिः पिनाकहस्ताय पिनाकः हस्ते यस्य सः शिवस्य धनुषः नाम पिनाकः इति पिनाको जगवं धनुः इति अमरकोशे अस्ति अतः यस्य हस्ते पिनाकः भवति सः पिनाकहस्तः तस्मै दिगम्बराय दिक् दिशः एव अम्बराणि अम्बरं नाम वस्त्रं यः दिशः एव वस्त्ररूपेण धरति सः दिगम्बरः तादृशाय एवं चत्वारि समस्तपदानि सन्ति अन्तिमः अभ्यासः आसीत् समस्तपदानि लिखत कानिचन विग्रहवाक्यानि दीयन्ते तेषां समस्तपदानि वक्तव्यानि. रघुपति आचार्य, यू हैव टू अनम्यूट योरसेल्फ.
नद्याः तीरं, नदीतीरं.
नदीतीरं, नद्याः तीरं, नदीतीरं.
समुद्रस्य तटः, समुद्रतटः.
समुद्रतटः, समुद्रस्य तटः, समुद्रतटः. सम्यक्. राधा भगिनि.
भूमे गुणः. भूमि गुणः.
भूमि गुणः, भूमेः गुणः, भूमि गुणः. काकस्य कार्ष्ण्यम्.
काकस्य कार्ष्ण्यम्. काककार्ष्ण्यम्.
काककार्ष्ण्यम्. कार्ष्ण्यम् इत्युक्ते कृष्णगुणः, नाम कृष्णवर्णः इत्यर्थः. काकस्य कार्ष्ण्यम्, काककार्ष्ण्यम्. प्रिया भगिनि, यू हैव टू अनम्यूट योरसेल्फ.
नमस्ते.
देवानाम् इन्द्रः.
देवेन्द्रः.
देवेन्द्रः. देवानाम् इन्द्रः, देवेन्द्रः. सुधायाः खण्डः.
सुधाखण्डः.
सुधाखण्डः. सम्यक्. पद्मश्री मणि. पाण्डोः तनयः.
पाण्डुतनयः.
सम्यक्. पाण्डुतनयः. गुरोः पत्नी.
गुरुपत्नी.
गुरुपत्नी. गुरोः पत्नी, गुरुपत्नी. पद्मनाभन् अय्यर् महोदय.
मित्रस्य गृहं, मित्रगृहम्.
मित्रगृहं. मित्रस्य गृहं, मित्रगृहम्. देवस्य पूजा.
देवस्य पूजा, देवपूजा.
देवपूजा. सम्यक्. निर्मला निशेक. दीपस्य प्रकाशः.
दीप. नमस्ते भगिनि.
हा नमस्ते.
दीपस्य प्रकाशः, दीपप्रकाशः.
दीपप्रकाशः. कवेः
रचना. कविरचना.
कविरचना. सम्यक्. नीला भगिनि, यू हैव टू अनम्यूट योरसेल्फ.
चन्द्रस्य दर्शनं. चन्द्रदर्शनं.
चन्द्रदर्शनं. जनानां समूहः.
जनसमूहः.
जनसमूहः. नागानाम् इन्द्रः.
इन्द्रः. नाग इन्द्रः.
सन्धिः श्रूयते चेत् नागेन्द्रः. सम्यक्. नागानाम् इन्द्रः, नागेन्द्रः. उत्तमम्. एवं समासस्य प्राथमिकः परिचयः प्राप्तः. विग्रहः नाम कः, समस्तपदं नाम किं, समस्तपदस्य अभिज्ञानं कथं भवति इति ज्ञातवन्तः. अग्रे समासस्य विषये इतोपि कांश्चन अंशान् अद्य वयं जानीमः. प्रथमः अंशः, समासे सर्वदा स्मर्तव्यः, समासे अर्थः प्रधानम्. अर्थस्य अत्यन्तं प्रामुख्यं भवति. अर्थम् आश्रित्य एव समासः वक्तुं शक्यते. केवलं पदं दीयते चेत् कदाचित् उच्यते, बहुवारं वक्तुं शक्यते, किन्तु बहुत्र अर्थस्य ज्ञानं विना समासः वक्तुं न शक्यते. तत्र एकः प्रसिद्धः श्लोकः अस्ति. कश्चन भिक्षुकः, भिक्षुकः राज्ञः आस्थानम् आगच्छति. राज्ञः आस्थानम् आगत्य तत्र महाराजं दृष्ट्वा सः वदति. किं वदति? अहञ्च त्वं च राजेन्द्र लोकनाथा उभावपि. भोराजन् अहम् त्वम् उभौ अपि लोकनाथौ, अहमपि लोकनाथः भवानपि लोकनाथः, भवतः मम च भेदः नास्ति इव भाति. किन्तु अग्रे सः वदति, बहुव्रीहिरहं राजन् षष्ठी तत्पुरुषो भवान्. तर्हि कः भेदः मम तव च इति चेत् समासे भेदः. अहं बहुव्रीहिसमासः, भवान् षष्ठी तत्पुरुषसमासः. इत्युक्ते कः अर्थः? बहुव्रीहिसमासः इत्युक्ते लोकः नाथः यस्य सः, यस्य समग्रः लोकः नाथः, लोकः एव तं पालयति. कं पालयति? भिक्षुकं. यतोहि सः अनाथः, अन्यः कोऽपि न भवति, अतः लोकम् आश्रित्य जीवति इत्यर्थे लोकनाथः इति पदस्य भिक्षुकः इत्यर्थः भवति. अतः अहं बहुव्रीहिः, अहम् इत्युक्ते भिक्षुकः वदति अहं बहुव्रीहिः, भवान् तु षष्ठी तत्पुरुषः. यदा षष्ठी तत्पुरुषसमासः क्रियते तदा किं भवति? लोकस्य नाथः, लोकनाथः, लोकस्य इव प्रभुः, कः? राजा इत्यर्थः भवति. एवं लोकनाथः इति एकमेव पदं, तत्र कः समासः इत्युक्ते वक्तुं न शक्यते. प्रसङ्गं विज्ञाय एव तत्र विग्रहवाक्यं वक्तव्यम्. यदि भिक्षुकम् उद्दिश्य लोकनाथः इत्युच्यते तर्हि लोकः नाथः यस्य सः इति विग्रहः भवति. यदि राज्ञः विषये लोकनाथः इति उच्यते तदा लोकस्य नाथः इति विग्रहः. तर्हि कथं तत्र ज्ञायते इति चेत् प्रसङ्गम् आश्रित्य एव ज्ञायते. कस्मिन् प्रसङ्गे तत् समस्तपदम् उपयुक्तं तद्दृष्ट्वा एव समासस्य अर्थः ज्ञायते. किन्तु तदेव अत्र कश्चन अन्योन्याश्रयः अस्ति. अन्योन्याश्रयः इत्युक्ते परस्परम् आश्रयः. इदानीं समासः अस्ति, अर्थः अस्ति. समासः ज्ञायते चेत् अर्थः ज्ञायते किल. वयम् इदानीं लोकनाथः इति कः अर्थः इत्युक्ते समासः ज्ञायते चेत् अर्थः ज्ञायते, अर्थः ज्ञायते चेत् समासः ज्ञायते इत्येवम्. इट्स् अ सर्कल्. अर्थं विना समासः न ज्ञायते, बहुत्र समासं विना अर्थः अपि न ज्ञायते. एवं परस्परम् आश्रित्य भवति. तर्हि कथं समासानाम् अध्ययनं कर्तव्यम् इति क्लेशः अस्ति. समासप्रकरणं बहु सुलभं न, बहु क्लिष्टमपि न, कष्टमिति न वदामि. किन्तु एवमस्ति, अर्थः ज्ञायते चेत् समासः, समासः ज्ञायते चेत् अर्थः इत्येवं कश्चित् क्लेशः अस्ति. तर्हि कथं समासानाम् अध्ययनं क्रियते इति चेत् आदौ अस्माभिः समासानां सामान्यज्ञानम्, उदाहरणानि च ज्ञातव्यानि. के के समासाः सन्ति, तेषां प्रसिद्ध उदाहरणानि कानि भवन्ति, तेन किं भवति? पैटर्न रिकग्निशन इत्युच्यते. ओ एवमस्ति चेत् एतादृशः समासः, एवमस्ति चेत् एतादृशः समासः इति मनसि कश्चन संस्कारः भवति. तदनन्तरं किं कर्तव्यम् इति चेत् सदृशानाम् उदाहरणानाम् अभ्यासः. आदौ राज्ञः पुत्रः राजपुत्रः इति एकम् उदाहरणं दृष्टम्. अस्तु, तर्हि समान उदाहरणानि, कुन्त्याः पुत्रः कुन्तीपुत्रः, कौसल्यायाः पुत्रः कौसल्यापुत्रः. अनन्तरम् उत्तरपदस्य परिवर्तनं, कौसल्यायाः पतिः कौसल्यापतिः, कौसल्यायाः माता कौसल्या माता इत्येवं समानतया यानि उदाहरणानि भवन्ति तेषाम् अभ्यासः कर्तव्यः. यावत् अधिकम् अभ्यासः क्रियते तावत् मनसि तिष्ठति. तदनन्तरं किं कर्तव्यम्? काव्येषु अथवा ग्रन्थेषु प्रयुक्तानां समासानां विमर्शः. यतोहि मया उक्तं समासः प्रसङ्गात् एव ज्ञायते. केवलं पदं गृहीत्वा समासः विग्रहः इति करणेन प्रयोजनं नास्ति. वाक्ये यदा प्रयोगः क्रियते तदा तत्र कस्मिन्नर्थे प्रयुक्तम्, अप्लिकेशन् इन् काण्टेक्स्ट् इति अत्यन्तं मुख्यं समासानां. तदा एव अर्थनिर्णयः वक्तुं शक्यते. वाक्ये वाक्यस्य कः अर्थः इति किञ्चित् ज्ञायते, कः प्रसङ्गः इति ज्ञायते, तदाधारेण तेषां समासानाम् अध्ययनं कर्तव्यम्. तदा किं भवति, मध्ये मध्ये नूतनसमासाः यत् न ज्ञायते, पठामः किन्तु न ज्ञायते, तदा शिक्षकः अस्ति चेत्, गुरुः अस्ति चेत् गुरोः साहाय्येन अथवा व्याख्यानानां पठनेन नूतनसमासानां ज्ञानं प्राप्तव्यम्. अस्माभिः यथा उक्तं काव्यवर्गे शनिवासरेषु वयं व्याख्यानमाश्रित्य काव्यं पठामः. सामान्यतः सर्वेषु व्याख्यानेषु समस्तपदानां विग्रहः दीयते, निश्चयेन दीयते, यतोहि समासः क्लिष्टः, अतः प्रायेण समस्तपदानां विग्रहः दीयते. अतः व्याख्यानानाम् आश्रयेण अथवा यत्र गुरुः पाठयति तत्र गुरोः साहाय्येन नूतनसमासाः, पूर्वं केवलं सामान्यज्ञानमेव प्राप्तुं शक्यते. सर्वेषामपि समासानां काम्प्रहेन्सिव् ज्ञानं प्रथमस्तरे न भवति. सामान्यज्ञानं प्राप्य अभ्यासं कृत्वा ततः काव्यानां वा ग्रन्थानां वा अध्ययनं यदा कुर्मः, यदा किमपि पठामः, कश्चित् श्लोकः अस्ति वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभा निर्विघ्नं कुरुमेरेव सर्वकार्येषु सर्वदा, तत्र पञ्च वा षड् वा समस्तपदानि सन्ति. वक्रतुण्ड इति समस्तपदं, महाकाय इति समस्तपदं, सूर्यकोटिसमप्रभा, निर्विघ्नं, सर्वकार्येषु, सर्वमपि समस्तपदमस्ति. वयं यत्किमपि श्लोकं वदामः अथवा पठामः तत्र कः समासः, कः समासः इति पुनः पुनः अभ्यासं कुर्मः चेत् तदा समासानां ज्ञानं सम्यक् भवति. यदा नूतनसमासः ज्ञायते ततः पुनः तस्य उदाहरणानि इत्यादि पठामः चेत् तदेकं पैटर्न सेट् भवति. एवं क्रमेण समासानाम् अध्ययनं क्रियते चेत् समासेषु सम्यक् ज्ञानं प्राप्यते. समासज्ञानं विना यत्किमपि काव्यं वा शास्त्रं वा पठितुं न शक्यते. सर्वत्रापि समासः अपेक्षितः. अतः अनया रीत्या समासेषु अभ्यासं कुर्मः. इदानीम् अस्मिन् स्तरे किं क्रियते, परीक्षादृष्ट्या एतद्द्वयमस्ति, समासस्य सामान्यज्ञानम् उदाहरणानि पठामः, तदाधारेण अभ्यासमपि कुर्मः. भवन्तः यदा अग्रे अग्रे पठन्ति तदा अग्रिम घट्टद्वयमपि भवद्भिः तत्र प्रयत्नः कर्तव्यः, तदा एव पूर्णं भवति, नो चेत् अर्धे एव तिष्ठति. तदर्थम् इदम् उच्यते. अस्तु, इदानीं समासे केचन सामान्यनियमाः, सामान्यतः ज्ञातव्याः केचन अंशाः. त्रयः अंशाः भवति. आदौ सुबन्तानाम् एव समासः. यदा अहम् इदानीमेव एकं श्लोकम् उक्तवती, उपसर्गः तिङन्तम् इति, तदा केनचित् झटिति पृष्टं, तर्हि तिङन्तानां समासः न भवति वा इति. न भवति इति उत्तरम्. समासः सुबन्तानाम् एव. सुबन्ताः इत्युक्ते नामपदानि. कानि नामपदानि? सामान्यतः वयं यज्जानीमः नामपदानि अव्ययानि, कृदन्ताः, तद्धितान्ताः, विशेषणानि, सङ्ख्याः, एतत् सर्वमपि सुबन्तमेव. सुबन्तानाम् एव समासः भवति. समासे यद्यत् पदं भवति तत्सर्वमपि सुबन्तम् एव. तिङन्तानां समासः न भवति. अत्र एकं लघु चिह्नमस्ति, न भवति इत्युक्ते 99.9% न भवति. एकं वा द्वयं वा उदाहरणम् अस्ति तिङन्तानां समासस्य, किन्तु अत्यन्तं विरलं, तद्विषये न चिन्तनीयमेव. सामान्यतया सुबन्तानाम् एव समासः, तिङन्तानां समासः न. झटिति केषाञ्चन प्रश्नः भवेत्, यदि किञ्चित् पठितं स्यात्, कुम्भं करोति इति कुम्भकारः, सूत्रं धरति इति सूत्रधारः इत्यादि सन्ति. किन्तु अत्र वस्तुतः विग्रहवाक्ये एव क्रियापदमस्ति, समस्तपदे क्रियापदं नास्ति. कुम्भकार, कुम्भम् इति नामपदं, कार इत्यपि कृदन्त शब्दः धनं ददाति इति धनदः तत्रापि धनम् इति सुबन्तं द इत्यपि कृदन्त शब्दः अतः उपपदसमासे अपि तिङन्तस्य समासः न तिङन्तानां समासः न भवति समासे पदद्वयमपि सुबन्तम् एव इति प्रथमः नियमः अतः यदि तिङन्तमस्ति त्यक्तव्यं तत्र समासः नास्ति चिन्तनीयमेव नास्ति अस्तु द्वितीयः नियमः यदा समासः क्रियते तदा द्वयोः एव भवति एतदपि प्रायेण 90% द्वयोः एव समासः इत्युक्ते समासे पदद्वयं भवति इति न कदाचित् दीर्घसमासः भवति दीर्घसमासः संस्कृतस्य विशेषः बाणभट्टः दण्डी इत्यादीनां गद्यकाव्येषु एकमेव पदं पञ्चपङ्क्तिषु भवति सो देर् आर् सिङ्गल् वर्ड् समस्तपद विच् टेक्स् लैक् 4 or 5 लैन्स् किन्तु तत्रापि स्टेप् बै स्टेप् एव समासः भवति एकमुदाहरणं दर्शयामि सर्वैः ज्ञातं स्यात् ललिता अष्टोत्तरशतनामावल्याः प्रथमं नाम भवति रजताचलशृङ्गाग्रमध्यस्थायै नमो नमः तत्र कति पदानि सन्ति अत्र एकं समस्तपदमस्ति किन्तु तन्मध्ये किमस्ति रजत अचल शृङ्ग अग्र मध्य स्था षट् पदानि सन्ति अत्र एकमेव पदम् अनेकस्य पदस्य एकपदीभवनं समासः बहूनां पदानां मेलनेन इदानीम् एकं पदं जातमस्ति किन्तु अत्र समासः कः इत्युक्ते सर्वाणि पदानि उपयुज्य एकवारमेव समासः वक्तुं न शक्यते कथं वक्तव्यम् रजतस्य अचलः अचलम् अथवा अचलः अचलः इत्युक्ते पर्वतः रजतम् इत्युक्ते सिल्वर् रजतस्य अचलः रजताचलः इति प्रथमं रजत अचल द्वयोः पदयोः आदौ समासः रजतस्य अचलः रजताचलः अग्रे इदानीं रजताचल इति एकं पदमस्ति रजताचलस्य शृङ्गं शृङ्गं शिखरं द पीक् आफ् द सिल्वर् मौण्टेन् अथवा रजतगिरि इति पर्वतः अस्ति तस्य शृङ्गं रजताचलस्य शृङ्गं रजताचलशृङ्गम् अग्रे रजताचलशृङ्गस्य अग्रम् अग्रं द टिप् आफ् द पीक् इत्यर्थः रजताचलशृङ्गस्य अग्रं रजताचलशृङ्गाग्रम् कुत्र आगताः अत्र एतावत्पर्यन्तम् आगताः रजताचलशृङ्गाग्रम् अग्रे मध्य अस्ति रजताचलशृङ्गाग्रस्य मध्यम् रजताचलशृङ्गाग्रमध्यम् इदानीं रजताचलशृङ्गाग्रमध्ये तिष्ठति अत्र विग्रहवाक्ये तिङन्तमस्ति किन्तु स्थ इति कृदन्तेन सह समासः रजताचलशृङ्गाग्रमध्यस्था तस्यै एवं क्रमशः एव समासस्य निर्माणं भवति बहूनि पदानि सन्ति चेदपि द्वयोः समासः क्रियते पुनः तस्य समस्तपदस्य अन्येन समासः तस्य अन्येन समासः इत्येव क्रमः सामान्यतः एवमेव कदाचित् द्वन्द्वसमासे विशिष्य बहूनां भवति यथा रामः लक्ष्मणः भरतः शत्रुघ्नः सन्ति चेत् चतुरः अपि योजयित्वा रामलक्ष्मणभरतशत्रुघ्नाः इति वदामः द्वन्द्वसमासे भवति किन्तु अन्येषु समासेषु यथा मया उक्तं 90% अथवा 95% द्वयोर्द्वयोरेव समासः भवति अतः दीर्घः समासः भवति चेत् न भेतव्यं सर्वमपि सरलमेव द्वयं स्वीकृत्य समासः अस्य विषये वयम् अन्ते पठामः आदौ समासस्य प्रभेदान् दृष्ट्वा अनन्तरं दीर्घसमासानां विग्रहः कथं क्रियते इति पुनः पश्यामः. किन्तु इदानीम् एतत् स्मर्तव्यम्. प्रथमः नियमः आसीत् सुबन्तानामेव समासः इति. द्वितीयः नियमः अस्ति द्वयोर्द्वयोरेव समासः भवति इति. तृतीयः नियमः अस्ति परस्पर अन्वयः अस्ति चेत् एव समासः भवति. कः अर्थः इति एकम् उदाहरणं पश्यामः चेत् ज्ञायते. राज्ञः पुत्रः इत्यस्ति. राज्ञः पुत्रः राजपुत्रः वयं जानीमः. राज्ञः पुत्रः राजपुत्रः इति समासः. किन्तु यत्र यत्र राज्ञः पुत्रः इत्यस्ति तत्र सर्वत्र राजपुत्रः इति न भवति. कुत्र भवति? राज्ञः पुत्रः गच्छति, राजपुत्रः गच्छति. अत्र समासः भवति, क्लेशः नास्ति, समासः युज्यते. किमर्थम्? राज्ञः पुत्रः एतयोः परस्परम् अन्वयः अस्ति. किन्तु कदाचित् किं भवति? भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति इति एकं वाक्यम्. किमस्ति? भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति. अत्र भवति इति सत्सप्तमी प्रयोगः. भवत् शब्दस्य सप्तमी विभक्तौ एकवचने भवति. कः अर्थः? राज्ञः दर्शनं भवति. As soon as the king is seen, चोरस्य पुत्रः धावति. The son of the thief flees, पलायनं करोति. चोरस्य पुत्रः पलायनं करोति. कदा पलायनं करोति? यदा राज्ञः दर्शनं भवति तदा सः भीत्या पलायनं करोति इति वाक्यस्य अर्थः. अत्र किमस्ति? राज्ञः पुत्रः इत्यस्ति. तर्हि अत्र राजपुत्रः इति समासः कर्तुं शक्यते वा इति चेत् न शक्यते. किमर्थम्? अत्र राज्ञः द किङ्ग्स् वाट् आफ् द किङ्ग् आफ् द किङ्ग् इत्यर्थः राज्ञः. वाट् आफ् द किङ्ग्? राज्ञः दर्शनम् द सैट् आफ् द किङ्ग् राज्ञः इत्यस्य दर्शनेन सह अन्वयः. पुत्रः कस्य पुत्रः? चोरस्य पुत्रः, न तु राज्ञः पुत्रः. पुत्रशब्दस्य चोरस्य इत्यनेन अन्वयः, राज्ञः इत्यस्य दर्शनम् इत्यनेन अन्वयः. राज्ञः पुत्रः इत्येतयोः परस्पर अन्वयः नास्ति. अतः भवति दर्शनं राजपुत्रः चोरस्य धावति इति वक्तुं न शक्यते. दिस् सेण्टेन्स् इस् नाट् करेक्ट्. यद्यपि राज्ञः पुत्रः राजपुत्रः अस्तु, तर्हि अत्रापि राज्ञः पुत्रः राजपुत्रः करोमि वा इति चेत् न करणीयम्. किमर्थम्? ययोः समासः क्रियते तयोः परस्परम् अन्वयः भवेत्. परस्पर अन्वयः अस्ति चेदेव समासः भवति. अवगतम्? अतः केवलं पदस्य विग्रहस्य अध्ययनेन पुनः एतदेव अर्थम् आश्रित्य समासः. अर्थः कः इति ज्ञात्वा एव समासः कर्तुं शक्यते. भवति दर्शनम् अत्र मया टङ्कणदोषः अस्ति. भवति दर्शनम् इति भवेत्. अत्र कश्चित् प्रश्नः. तर्हि राज्ञः दर्शनम् इति समासः भवति वा? भवति. भवति राजदर्शनं चोरपुत्रः धावति. चोरस्य पुत्रः चोरपुत्रः इति समासः भवति. राज्ञः दर्शनं राजदर्शनम् इति समासः भवति. राज्ञः पुत्रः राजपुत्रः इति न भवति अस्मिन् वाक्ये. अतः वाक्ये सः समासः युज्यते वा इत्येव द्रष्टव्यम्. केवलं राज्ञः पुत्रः राजपुत्रः इति ज्ञात्वा प्रयोजनं नास्ति. अवगतम्? राज्ञः दर्शनं भवति. क्लेशः अस्ति वा? श्रूयते वा सर्वैः? केचन वदन्ति न श्रूयते इति. ओके, एवं समासस्य मुख्याः नियमाः त्रयः भवन्ति. सुबन्तानामेव समासः इति प्रथमः नियमः, द्वयोर्द्वयोरेव समासः इति द्वितीयः नियमः, अर्थम् आश्रित्य परस्पर अन्वयः अस्ति चेदेव समासः भवति इति तृतीयः नियमः. अत्र कश्चित् सन्देहः अस्ति वा? हा, मोहन् महोदय, प्रश्नः अस्ति वा?
Yeah, a small doubt. I mean, if it is wrong, please excuse me for this thing. Can't we say chorasya darshanam bhavati rajaputraha dhavati?
That is not the intended meaning of this sentence.
Okay.
This sentence is not meant in the sense of saying the prince.
Okay. But that construction will be correct.
Sorry. If your intention is to say that. See, that is why when I said samasasya arthaha, kaha arthaha vivakshitaha. What is the intention of the speaker? Saha kim vaktum icchati. Tat mukhyam. Tat atyantam mukhyam. Chorasya darshanam bhavati rajaputraha dhavati iti yadi तादृशम् अर्थं वक्तुम् इच्छति तदा राजपुत्रः इति भवति, किन्तु अत्र तत् न उद्दिष्टम् इत्येव. अन्यः प्रश्नः, यदि समासे द्वेधा विग्रहस्य सम्भवः अस्ति कथं निर्णयः कर्तव्यः? प्रसङ्गमाश्रित्य अर्थं दृष्ट्वा निर्णयः कर्तव्यः. कः अर्थः तस्मिन् प्रसङ्गे युज्यते इति दृष्ट्वा कर्तव्यम्. अग्रे वयम् एतत् सर्वं पुनः विवृततया पश्यामः. अग्रे समासप्रभेदाः, समासस्य कति भेदाः सन्ति इति स्थूलरूपेण पश्यामः. समासः मुख्यतया चतुर्विधः भवति: अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः इति चतुर्धा समासः भवति. मुख्याः समासप्रभेदाः चत्वारः: अव्ययीभावसमासः, तत्पुरुषसमासः, बहुव्रीहिसमासः एवं द्वन्द्वसमासः इति. तत्र प्रतिसमासं केचन भेदाः भवन्ति. मुख्यतया तत्पुरुषसमासस्य भेदाः द्रष्टव्याः. तत्पुरुषसमासे सामान्यतत्पुरुषः इति भवति, कर्मधारयः, द्विगुः, नञ् प्रभृतयः इत्येवं तत्पुरुषसमासे चत्वारः प्रभेदाः सन्ति, प्रसिद्धाः प्रभेदाः. तत्र पुनः सामान्यतत्पुरुषे द्वितीया तत्पुरुषः, तृतीया तत्पुरुषः, चतुर्थी तत्पुरुषः एवं सप्तमीपर्यन्तम् एकदेशिसमासः इत्येवं प्रभेदाः भवन्ति. कर्मधारयसमासे नवप्रभेदाः सन्ति, तेषां विवरणम् अधुना न अपेक्ष्यते. द्विगुसमासे प्रभेदत्रयमस्ति: तद्धितार्थद्विगुः, उत्तरपदद्विगुः, समाहारद्विगुः इति. नञ् प्रभृतिषु पञ्चसमासाः सन्ति: नञ् समासः, कु समासः, गतिसमासः प्रादिसमासः उपपदसमासः इति सर्वेषामपि प्रभेदानां विवरणं तत् पुस्तकं गत वर्गे मया उक्तं. समासः इति पुस्तकमस्ति, तथैव अस्माकं समासः इति सान्द्रमुद्रिका आर् वेब् वर्षन् मल्टिमीडिया टूल् अस्ति, तत्र सर्वेषामपि प्रभेदानां विस्तृततया वर्णनम् अस्ति. अधुना एतावता अलम्, एवं प्रभेदाः सन्ति इति जानीमः. यदा यदा तं समासं पश्यामः तदा तस्य विषये इतोपि अधिकं ज्ञायते. अत्र एतावता अलं, समासः चतुर्विधः: अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः इति. तत्र पुनः तत्पुरुषसमासे सामान्यः कर्मधारयः, द्विगुः, नैप्रभृतयः इति भेदाः सन्ति. पुनः अन्तर्भेदानां विषये यदा तस्य समासस्य अध्ययनं क्रियते तदा जानीमः. तत्र समासप्रभेदानाम् अध्ययनात् पूर्वं बहु मुख्यः एकः अंशः ज्ञातव्यः: समासप्रक्रिया. समासः कथं भवति इत्युक्ते समासकरणे कः क्रमः इति ज्ञातव्यम्. वाट् आर् द स्टेप्स्? यदि द्वयोः पदयोः मेलनं कृत्वा समासः कर्तव्यः इति इच्छा भवति तत्र कः क्रमः आश्रयणीयः इति. आदौ विग्रहवाक्यात् समासं प्रति गच्छामः, अनन्तरम् अभ्यासेन समासस्य विग्रहः कथम् इति ज्ञायते. तत्र अभ्यासः अपेक्ष्यते, किन्तु पदानां योजने क्रमः अनुस्रियते चेत् सरलतया योजनं कर्तुं शक्यते. उदाहरणं पश्यामः. गणानाम् ईशं भजे इति एकं वाक्यं. गणानाम् ईशं, गणाः भवन्ति, तेषाम् ईशः स्वामी, तं भजे, नमस्करोमि इति. इदानीं मम इच्छा अस्ति, समासः कर्तव्यः. अत्र भजे इति तिङन्तं, तिङन्तस्य समासः न भवति. गणानाम् ईशम् इति सुबन्तद्वयम् अस्ति, अस्य समासं करोमि इति मम इच्छा भवति. तर्हि आदौ किं करणीयम् इति चेत्, प्रथमं भवति पूर्व उत्तरपदयोः प्रातिपदिकं स्वीकरणीयम्. तत्र पदद्वयमस्ति, द्वयोः पदयोः प्रातिपदिकम्. प्रातिपदिकं नाम किम्? सुबन्तस्य मूलरूपं प्रातिपदिकम् इति कथ्यते. अकारान्तः, पुल्लिङ्गः, रामशब्दः, रामः, रामौ, रामाः इति जानीमः. तत्र रामः, रामौ, रामाः इति सर्वमपि सुबन्तं भवति, तस्य मूलरूपमस्ति राम इति, तत् प्रातिपदिकम्. इदानीं गणानाम् इत्यत्र गणशब्दः, गण इति प्रातिपदिकम्. ईशम् इत्यत्र ईश इति प्रातिपदिकम्. प्रथमम् एतदेव कर्तव्यम्, उभयोः पदयोः प्रातिपदिकम्, गण प्लस् ईश. प्रातिपदिकयोः योजनं क्रियते, तत् प्रथमं भवति. तदनन्तरं किं क्रियते इति चेत्, यदि सन्धेः अवकाशः अस्ति, सन्धिं कर्तुं कोऽपि सन्धिः तत्र मध्ये भवति चेत् सन्धिः कर्तव्यः. गतवर्गे अपि उक्तं, समासे संहिता नित्या, अतः निश्चयेन सन्धिः कर्तव्यः. गण प्लस् ईश, अ प्लस् ई, अत्र गुणसन्धिः भवति. गुणसन्धिः भवति चेत् गणेश इति भवति. इदानीं गणेश इति नूतनं प्रातिपदिकम्. पूर्वं गण इति प्रातिपदिकमासीत्, तस्य गणानाम् इति सुबन्तम्. ईश इति प्रातिपदिकं, तस्य ईशः, ईशौ, ईशाः इति रूपाणि. इदानीं समासानन्तरं गणेश इति प्रातिपदिकम्, अकारान्तः, पुल्लिङ्गः, गणेशशब्दः, तस्य सर्वासु विभक्तिषु सर्वेषु वचनेषु रूपं भवति. गणेशः, गणेशौ, गणेशाः, हे गणेश, हे गणेशौ, हे गणेशाः सर्वाणि रूपाणि भवन्ति. तर्हि तदनन्तरं किं कर्तव्यम्? लिङ्गवचनविभक्तिनिर्णयः. अस्माकं वाक्ये किं लिङ्गं, पदस्य किं लिङ्गं, किं वचनं, का विभक्तिः अस्माभिः इष्यते इति निर्णेतव्यम्. अत्र गणानाम् ईशं भजे इति वाक्यं चेत् अत्र गणेश इति पुल्लिङ्गे द्वितीया विभक्तौ एकवचनरूपम् इष्यते. यदा वाक्ये प्रयोगं कुर्मः तदा एतत् निश्चीयते. नो चेत् केवलं पदमस्ति चेत् बै डिफाल्ट् प्रथमा विभक्ति एकवचनरूपं दीयते, गणानाम् ईशः गणेशः. यदा वाक्यं नास्ति तदा प्रथमा विभक्तौ एकवचने स्थापयामः. किन्तु वाक्यमस्ति चेत् तत्र का विभक्तिः, ईशं भजे इत्यत्र द्वितीया विभक्तिः अस्ति. अतः गणेश इति पुल्लिङ्गशब्दस्य द्वितीया विभक्तौ एकवचने किं भवति? गणेशः गणेशौ गणेशाः गणेशम्. इदानीं किं लभ्यते? समस्तपदं लभ्यते. एतत् सर्वं ज्ञात्वा गणेशं, तदा गणेशं भजे इति वाक्यं. गणानाम् ईशम् इत्यस्य स्थाने इदानीं गणेशम् इति अस्माभिः प्रयुक्तम्. आदौ प्रातिपदिकम्, उभयोः पदयोः प्रातिपदिकं स्वीकरणीयम्. तदनन्तरं सन्धिः कर्तव्यः. सन्धेः अनन्तरं का विभक्तिः, किं वचनं, किं लिङ्गम् इत्यादि चिन्तनीयम्. केषुचित् शब्देषु लिङ्गं निश्चितं भवति, कदाचित् तत्र अर्थं दृष्ट्वा लिङ्गस्य निर्णयः कर्तव्यः भवति. एवमेव वचनं कदाचित् निश्चितं भवति, कदाचित् दृष्ट्वा अर्थं दृष्ट्वा निर्णेतव्यं भवति. तत् कृत्वा किं रूपम् अपेक्षितम् इति जानीमः. पुनः एकम् उदाहरणं पश्यामः. कृष्णः अर्जुनः च गच्छतः इति वाक्यमस्ति. अत्र कृष्णः अर्जुनः च इत्यस्य समासः कर्तव्यः इति मम इच्छा अस्ति. तदा आदौ किं क्रियते? पूर्व उत्तरपदयोः प्रातिपदिकम्. कृष्णः इत्यत्र कृष्ण इति प्रातिपदिकम्, अर्जुनः इत्यत्र अर्जुन इति प्रातिपदिकम्. कृष्ण अर्जुन. अग्रे किं क्रियते? सन्धिः शक्यते चेत् क्रियते. अत्र तु अकारः अकारः उभयोः सवर्णदीर्घसन्धिः भवति चेत् कृष्णार्जुन इति भवति. कृष्णार्जुन इति सवर्णदीर्घसन्धिः. ततः इदानीं किं लिङ्गं, किं वचनं, का विभक्तिः? अत्र लिङ्गं कृष्ण अर्जुन उभयं पुल्लिङ्गे अस्ति, क्लेशः नास्ति, पुल्लिङ्गं. किं वचनं? पूर्वम् उभयमपि एकवचने आसीत्, किन्तु कृष्ण अर्जुन इति इदानीं द्वौ स्तः, अतः द्विवचनं भवति. का विभक्तिः? प्रथमा विभक्तिः. तत्र या विभक्तिः अस्ति सा एव. अतः कृष्णार्जुन इति अकारान्तस्य पुल्लिङ्गस्य प्रथमा विभक्तौ द्विवचनम् अस्माभिः वक्तव्यम्. इदानीं समस्तपदं किं भवति? कृष्णार्जुनः कृष्णार्जुनौ. यथा रामः रामौ, एवं कृष्णार्जुनौ. समस्तपदं कृष्णार्जुनौ इति. कृष्णार्जुनौ गच्छतः इति वाक्यम्. पुनः अन्यदेकं किञ्चित् विशिष्टम् उदाहरणं पश्यामः. भक्तः कमले इव नयने यस्याः तां देवीं ददर्श. भक्तः देवीं ददर्श. कीदृशी आसीत् सा देवी? तस्याः नयने कमले इव. हर् ऐस् वेर् लैक् लोटसस्. इदानीं कमले इव नयने यस्याः ताम् इति समासेन वक्तुं शक्यते. पुनः अत्र किं क्रियते? अत्र इव इति समासस्य भागः न, कमले नयने. एतत्तु यदा वयं समासस्य प्रभेदान् जानीमः तदा अस्य विषये ज्ञायते. एतादृशं विग्रहवाक्यं यदा भवति तदा कमले नयने एतयोरेव समासः. इव इति समासे भागं न गृह्णाति कुत्रापि न. विद्या अथवा नरः व्याघ्रः इव नरव्याघ्रः. एवं कुसुमम् इव कोमलं कुसुमकोमलम् इव इति समासेन ज्ञायते. तस्य पदस्य समासे अन्तर्भावः न भवति. कमले नयने इत्येव समासः. तत्र कमले इति प्रथमाविभक्तौ द्विवचने अस्ति. कमलं कमले कमलानि तत्र प्रातिपदिकमस्ति कमल. एवं नयनं नयने नयनानि प्रातिपदिकमस्ति नयन. कमल नयन इत्यस्ति. सन्धिः अत्र कोऽपि सन्धिः नास्ति. कमलनयन इत्यत्र सन्धेः अवकाशः नास्ति. इदानीं लिङ्गं वचनं विभक्तिः. किं लिङ्गं? कमलनयन इति लिङ्गत्रये अपि भवति. पुरुषस्य नयने कमले एव भवितुम् अर्हतः. कमलनयनः विष्णुः. स्त्रियाः नयने कमले इव भवतः. नपुंसकलिङ्गे किञ्चित् पदं मित्रं. मित्रस्य नयनं कमले इव. तर्हि अस्मिन् प्रसङ्गे किं लिङ्गम्? अस्य लिङ्गं प्रसङ्गात् एव ज्ञायते, अन्यथा न ज्ञायते. अत्र देवीम् इत्यस्ति, अतः स्त्रीलिङ्गम्. स्त्रीलिङ्गे द्वितीया विभक्तिः. देवीम् इत्यस्य विशेषणम्, अतः द्वितीया विभक्तिः एकवचनम्. एका एव देवी, अतः स्त्रीलिङ्गे द्वितीया विभक्तौ एकवचनं कमलनयन इत्यस्ति. स्त्रीलिङ्गं चेत् कमलनयना इति भवति, रमाशब्दवत् रूपं. तस्य द्वितीया विभक्तौ एकवचने कमलनयनाम् इति भवति. तदा भक्तः कमलनयनां देवीं ददर्श इति समस्तपदं भवति. अत्र केचन संशयाः भवन्त्येव. प्रथमः संशयः, कदाचित् विशेषः भवति, यथा तद्विषये अग्रिमसप्ताहे वदामि. सर्वत्र एतदेव न. वस्तुतः अत्र चत्वारि दर्शितम्, अत्र मध्ये किञ्चिदस्ति. कदाचित् किं भवति, तत्र किञ्चित् परिवर्तनं भवति. पूर्वपदे वा उत्तरपदे वा किञ्चित् परिवर्तनं भवति. यथा एकमुदाहरणं वदामि. महान् राजा इत्यस्ति. तत्र महत् इति महान् शब्दस्य प्रातिपदिकं, राजन् इति प्रातिपदिकं. महत् राजन् इत्यस्ति. तत्र महत् इत्यतः महा इति भवति, एवं राजन् इत्यतः राज इति भवति. कथं भवति इति विशेषनियमाः भवन्ति. केषाञ्चित् पदानां विशेषनियमाः भवन्ति, ते अनन्तरं ज्ञायन्ते. एतत्तु सामान्यप्रक्रिया अस्ति. तत्र सन्धिकरणात् पूर्वं कदाचित् विशेषः भवति. विशेषः अस्ति चेत् तद् ज्ञातव्यं, तद्वयम् अग्रे जानीमः. सामान्यपदानां विषये एतावद् भवति. अतः यदि कुत्रचित् प्रातिपदिकं किञ्चित् परिवर्तितमिव दृश्यते, तत्र विशिष्टं कार्यम् अस्ति इति इदानीं जानन्तु. अग्रे कुत्र कुत्र विशिष्टकार्यं भवति इति विशिष्यनियमाः भवन्ति, तत् पश्यामः अनन्तरम्. केनचित् पृष्टं मातापितरौ, तत्रापि विशेषः. मातृ पितृ इति भवति, तत्र मातृ इत्यतः माता इति भवति. विशेषः अस्ति. पुनः अत्र कृष्णः अर्जुनः च समासस्य विग्रहस्य च मया उक्तं. प्रथमः अंशः भवति पैटर्न रिकग्निशन इति. अस्माभिः विग्रहस्य शैली काचित् भवति, तत्र इव, यस्याः, ताम् इत्यादि अर्थबोधनार्थमेव उच्यते, समासे भागं न गृह्णाति. अतः अत्र कमले नयने इत्येतयोः एव समासः. यदा वयं बहुव्रीहिसमासं पठामः तदा स्टाण्डर्ड् पाटर्न् किम् इति ज्ञायते. एवमेव कृष्णः, अर्जुनः च इत्यत्र च इति समासे भागं न गृह्णाति. कृष्ण, अर्जुन एतयोरेव समासः. एतत्तु यदा तत्तत् समासं पठामः स्टाण्डर्ड् पाटर्न् ज्ञायते. कृष्णार्जुन इत्यत्र कथं द्विवचनम् इति, कृष्णः अर्जुनः द्विवचनं कदा भवति? यदा द्वौ भवतः. यदि एकः एव बालः तर्हि बालः गच्छति, यदि द्वौ स्तः तर्हि बालौ गच्छतः. इदानीं कृष्णार्जुन इति समस्तपदेन कृष्णस्य अर्जुनस्य उभयोः ग्रहणं भवति, अतः कृष्णार्जुनौ इत्यत्र द्विवचनं भवति. कमलनयनाम् इत्यत्र कथं द्वितीया विभक्तिः? यथा रमां तथा कमलनयनाम्. कमलनयना, कमलनयने, कमलनयनाः, कमलनयनाम्. देवीम् इति द्वितीया अस्ति, अतः अत्रापि देवी भवति. कुत्र कमलनयना, कुत्र कमलनयनी इति केनचित् पृष्टं. तत्तु स्त्रीप्रत्ययानां विषये यदा पठामः तदा ज्ञायते. विशिष्टस्थलेषु ईकारः भवति, सामान्यतः आकारः भवति. मया यद्यदुदाहरणं चितं तत्सर्वमपि सामान्यतः यद्भवति तच्चितं. विशेषः बहु अस्ति, किन्तु आदौ प्राथमिकज्ञानं प्राप्य अग्रे विशेषस्य विषये पश्यामः. उपकृष्णम् इत्यत्र उप इति उपसर्गः वा सुबन्तः वा इति प्रश्नः. आम्, उप इति सुबन्तः, तत्र उपसर्गः न, प्रादिः इति कथ्यते. अव्ययं भवति अतः सुबन्तत्वम् अस्ति. उपकृष्णम् इत्यत्र उप इत्यपि सुबन्तं, कृष्णम् इत्यपि सुबन्तमेव. अस्तु, अन्ये केचित् प्रश्नाः त्यक्ताः चेत् अनन्तरं दृष्ट्वा वक्ष्यामि, यतोहि समयः अतीतः. वस्तुतः अत्र केचन अभ्यासाः कर्तव्याः इति मया चिन्तितमासीत्, क्रमम् आश्रित्य कथं समासः भवति इति. एकमेव प्रदर्शयामि, अन्यत् सर्वम् अभ्यासार्थं ददामि, गृहे कृत्वा कृपया आगच्छन्तु. एतं क्रममनुसृत्य इदानीं यद्दीयते तत्र विशेषः कोऽपि न भवति, सामान्य उदाहरणानि एव दीयन्ते. एतं क्रमम् अनुसृत्य समस्तपदं कथं भवति? यत्र योगस्य ईश्वरः कृष्णः, बहु प्रसिद्धं, योगस्य ईश्वरः. प्रथमं किं कर्तव्यं? प्रातिपदिकं, योग ईश्वर इति प्रातिपदिकं. सन्धिः गुणसन्धिः भवति, योगेश्वर, सः कृष्णः, अतः पुल्लिङ्गे प्रथमाविभक्तौ एकवचनम्, अकारान्तः पुल्लिङ्गशब्दः, अतः योगेश्वरः. यत्र योगेश्वरः कृष्णः, यत्र पार्थो धनुर्धरः, तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम इति मङ्गलं कृत्वा समापयामः. इतोपि केचन प्रश्नाः आसन्, अद्यतन अभ्यासः एषः एव. विग्रहवाक्यं दीयते, तत्र क्रमम् आश्रित्य समासं कृत्वा वाक्ये तस्य समासस्य उपयोगः कर्तव्यः. मया पुनः पुनः उच्यते, सामान्यतः समासाध्ययने केवलं पदानाम् अध्ययनं क्रियते, एतत् पदम्, अयं विग्रहः इति. तदा वाक्ये उपयोक्तुं क्लेशः भवति, अतः यावच्छक्ति वाक्ये कथं समासस्य उपयोगः कथं विग्रहः इत्येव पश्यामः. तत्र वाक्यानि भवन्ति. एकम् उदाहरणं दर्शयामि अभ्यासस्य. अत्र यत्र स्क्वेर् ब्राकेट् मध्ये अस्ति सः विग्रहः, यथा परमः ईश्वरः इति, तस्य कथं समासः भवति इति स्टेप् वैस् दर्शनीयम्. एवमेव सर्वत्र यानि यानि वाक्यानि सन्ति तत्र एवं कुर्वन्तु. अग्रिमवर्गे अस्य चर्चां कृत्वा अग्रे गच्छामः. शीघ्रं संक्षेपं वदामि. अद्य किं किं ज्ञातं? समासे अर्थस्य प्राधान्यं भवति इति ज्ञातम्. समासेषु सामान्यनियमाः के? सुबन्तानाम् एव समासः, द्वयोर्द्वयोरेव समासः, परस्पर अन्वयः अस्ति चेदेव समासः इति ज्ञातवन्तः. समासप्रभेदाः के के भवन्ति इति दृष्टम्. समासप्रक्रिया सामान्यतः कथं भवति? आदौ पूर्वपदस्य उत्तरपदस्य च प्रातिपदिकं स्वीकरणीयं, ततः तत्र सन्धिः शक्यते चेत् कर्तव्यः. किं लिङ्गं, किं वचनं, का विभक्तिः इति ज्ञातव्यम्. ततः समस्तपदं लभ्यते, तस्य उपयोगः कर्तुं शक्यते. श्वः वर्गः भवति रात्रौ 8 यत्र वयं काव्यांशानाम् अध्ययनं कुर्मः. समासस्य अध्ययनम् अग्रिमसप्ताहे अनुवर्तयामः. गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. धन्यवादाः. अहं प्रश्नान् अनन्तरं पश्यामि. केचित् प्रश्नाः न स्वीकृताः चेत् तेषाम् उत्तरं दास्यामि, ईमेल् द्वारा वा अग्रिमवर्गे वा. एवमेव येषाम् अवकाशः न लब्धः कृपया तद्विषये खेदः मास्तु. बहवः सन्ति, प्रायः 100 जनाः सन्ति इत्यतः सर्वेषाम् अवकाशः दातुं न शक्यः. अग्रे निश्चयेन सर्वेषाम् अवकाशं कल्पयितुं प्रयत्नं करोमि. श्वः मिलामः.